तत्र भवान् कालिदासः कुमारसंभवं काव्यं चिकीर्षुः आशीर्नमस्क्रियावस्तु निर्देशो वापि तन्मुखम् इति शास्त्रात् काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु निर्दिशति
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः पूर्वापरौ तोयनिधि विगाह्य स्थितः पृथिव्या इव मानदण्डः
अस्तीति उत्तरस्यां दिशि अनेन अस्य देवभूमित्वं सूच्यते देवतात्मा देवता आत्मा अधिष्ठाता यस्य सः एतेनास्य वक्ष्यमाण मेनकापरिणय पार्वती जननादि चेतन व्यवहारयोग्यत्वसिद्धिः हिमस्य आलयः स्थानमिति हिमालयः नाम हिमालय इति प्रसिद्धः अधिको राजा अधिराजः राजाः सखिभ्यष्टच् न गच्छन्तीति नगाः अचलाः तेषाम् अधिराजः नगाधिराजः अस्ति कथम् भूतः पूर्वापरौ प्राच्य पश्चिमौ तोयनिधी समुद्रौ विगाह्य प्रविश्य अत एव पृथिव्याः भूमेः मानम् हस्तादिना परिच्छेदः भावे ल्युट् तस्य दण्डः यद्वा मीयते अनेनेति मानम् करणे ल्युट् स चासौ दण्डश्च मानदण्डः स इव स्थितः आयामपरिच्छेदकः दण्डः इव स्थितः इत्यर्थः पूर्वापर सागरावगाहित्वम् चास्य हिमालयस्य अस्त्येव उक्तम् च ब्रह्माण्डपुराणे कैलासो हिमवांश्चैव दक्षिणे वर्षपर्वतौ पूर्वपश्चिमगावेतौ अर्णवान्तरुपस्थितौ इति अत्र हिमाचलस्य उभयाद्धिव्याप्तिसाम्यात् मानदण्डत्वेन उत्प्रेक्षालङ्कारः प्रकृते अप्रकृतगुणक्रियादिसम्बन्धात् अप्रकृतत्वेन प्रकृतस्य सम्भावनम् उत्प्रेक्षा इत्यलङ्कारसर्वस्वकारः अस्मिन् सर्गे प्रायेण वृत्तम् उपजातिः क्वचित् इन्द्रवज्रा उपेन्द्रवज्रे च तल्लक्षणम् तु स्यादिन्द्रवज्रा यदितौ जगौगः उपेन्द्रवज्रा जतजास्ततोगौ अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीया उपजातयस्ताः इति इतः परम् षोडशभिः श्लोकैः हिमाद्रिम् वर्णयति तत्र नगाधिराजत्वम् निर्वोढुम् आह
यम् सर्वशैलाः परिकल्प्य वत्सम् मेरौ स्थिते दोग्धरिदोह दक्षे भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टाम् दुदुहुर्धरित्रीम्
यमिति सर्वे च ते शैलाश्च सर्वशैलाः पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति समासः यम् हिमालयम् वत्सम् परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरिस्थिते सति यस्य च भावेन भावलक्षणम् इति सप्तमी पृथूपदिष्टाम् पृथुना वैन्येन उपदिष्टाम् ईदृक्तया प्रदर्शिताम् धरित्रीम् गोरूपधराम् इति शेषः गौर्भूत्वा तु वसुन्धरा इति विष्णुपुराणात् అకథితంచ ఇతి కర్మత్వం భాస్వంతి చ భాస్వత్యశ్చ భాస్వంతి ద్యుతిమంతి ఓషధి విశేషణం చైతత్ నపుంసకమనపుంసకేన ఇత్యాదినా నపుంసకైకశేషః రత్నాని మణీన్ జాతి శ్రేష్ఠవస్తూని చ రత్నం శ్రేష్ఠే మణావపి ఇతి విశ్వః జాతౌ జాతౌ యదుత్కృష్టం తద్రత్నం ఇతి కథ్యతే ఇతి యాదవః మహౌషధీశ్చ సంజీవనీ ప్రభృతీశ్చ క్షీరత్వేన పరిణతా ఇతి శేషః తాః క్షీరపరిణామినీః ఇతి విష్ణుపురాణాత్ దుదుహుః దుహియాచి ఇత్యాదినా వికర్మకత్వం అత్ర ప్రయోజకత్వేపి శైలానాం పంచభిః హలైః కర్షతి గ్రామం గ్రామణీః ఇతివత్ తత్సమర్థాచరణాత్ కర్తృత్వేన వ్యపదేశః దుహేః స్వరితేత్వేపి అకర్త్రభిప్రాయ వివక్షాయాం పరస్మై పదం అత్రార్థే ప్రమాణం గౌర్భూమి రచలాః సర్వే కర్తారోత్ర పయాంసి చ ఓషధ్యశ్చైవ భాస్వంతి రత్నాని వివిధాని చ వత్సశ్చ హిమవానాసీత్ దోగ్ధా మేరుర్మహాగిరిః ఇతి ఏతేన వత్సస్య మాతుః ప్రేమాస్పదత్వాత్ అస్య సారగ్రాహిత్వం గమ్యతే తథా చాస్య నగస్య రత్నవిశేష భోక్తృత్వాత్ నగాధిరాజత్వం యుక్తం ఇతి భావః అత్ర హిమవద్వర్ణనస్య ప్రకృతత్వాత్ తద్గతౌషధిరత్నానాం ద్వయానాం అపి ప్రకృతత్వాత్ తేషాం దోహనక్రియారూపసమానధర్మసంబంధాత్ ఔపమ్యస్య గమ్యత్వాత్ కేవల ప్రాకరణిక విషయః తుల్యయోగితానామ అలంకారః తదుక్తం ప్రస్తుతానాం తథాన్యేషాం కేవలం తుల్యధర్మతః ఔపమ్యం గమ్యతే యత్ర సామత తుల్యయోగిత ఇతి న చాత్ర రూపక పరిణామాద్యలంకార శంకా కార్యా తేషాం ఆరోపహేతుత్వాత్ హిమహేమాచలాదిషు వత్సత్వ దోగ్ధృత్వాదీనాం ఆగమసిద్ధత్వేన అనారోప్యమాణత్వాత్ ఇతి నను హిమదోషదూషితస్య తస్య అత్యంతం అనభిగమ్యత్వాత్ శ్విత్రిణ ఇవ సర్వమపి సౌభాగ్యం విఫలం ఇత్యాశంక్య ఆహ
అనంతరత్నప్రభవస్య యస్య హిమం న సౌభాగ్య విలోపి జాతం ఏకో హి దోషో గుణసన్నిపాతే నిమజ్జతీందోః కిరణేష్వివాంకః
అనంతేతి ప్రభవతి అస్మాదితి ప్రభవః కారణం అనంతరత్నప్రభవస్య అనంతానాం అపరిమితానాం రత్నానాం శ్రేష్ఠవస్తూనాం ప్రభవస్య యస్య హిమాద్రేః హిమం కర్తృ సుభగస్య భావః సౌభాగ్యం హృద్భగసింధ్వంతే పూర్వపదస్య చ ఇత్యుభయపదవృద్ధిః తద్విలుంపతీతి సౌభాగ్యవిలోపి సౌందర్యవిఘాతకం న జాతం నాభూత్ తథా హి ఏకః దోషః గుణసన్నిపాతే ఇందోః కిరణేషు అంక ఇవ నిమజ్జతి అంతర్లీయత ఇత్యర్థః నహి స్వల్పో దోషః అమితగుణాభిభావక ఏవ కింతు కశ్చిత్ ఇందుకలంకాదివత్ గుణైః అభిభూయతే అన్యథా సర్వరమ్య వస్తుహాని ప్రసంగాదితి భావః అత్ర ఉపమానుప్రాణితః అర్థాంతరన్యాసాలంకారః తల్లక్షణం తు జ్ఞేయస్సోర్థాంతరన్యాసో वस्तु प्रस्तुत्य किञ्चन तत्साधन समर्थस्य न्यासो योन्यस्य वस्तुनः इति दण्डी।
यश्चाप्सरो विभ्रममण्डनानाम् सम्पादयित्रीम् शिखरैर्बिभर्ति बलाः कच्छेद विभक्तरागाम् अकाल संध्यामिव धातुमत्ताम्।
यश्चेति च किञ्चेति चकारार्थः यः हिमाद्रिः अप्सरो विभ्रममण्डनानाम् अप्सरसाम् विभ्रममण्डनानि विलासालङ्करणानि अथवा विभ्रमो विपरीतन्यासः विभ्रमस्त्वरया काले भूषास्थान विपर्यये इति दशरूपकात्। तेन मण्डनानि तेषाम् सम्पादयित्रीम् एतद्धातुरागदर्शिन्यः अप्सरसः सन्ध्याभ्रमेण प्रसाधनाय त्वरन्त इति भावः। तथात्वे भ्रान्तिमदलङ्कारो व्यज्यते कर्तृकर्मणोः कृती इति कर्मणि षष्ठी। बलाहकच्छेदविभक्तरागाम् वारीणाम् वाहकाः बलाहकाः पृषोदरादित्वात् साधुः तेषाम् छेदेषु खण्डेषु विभक्तः सङ्क्रमितः रागः यया ताम्। एतेन अद्रेः अभ्रंकषत्वम् गम्यते। इदम् विशेषणद्वयम् सन्ध्यायामपि योज्यम्। धातवः सिन्दूरगैरिकादयः अस्य सन्तीति धातुमान्। नित्ययोगे मतुप् तस्य भावो धातुमत्ता ताम् धातुमत्ताम्। धातुयोगित्वम् इति सम्बन्धोऽपि वाच्यार्थः। समासकृत्तद्धितेषु सम्बन्धाभिधानम् भावप्रत्ययेन इति वचनात्। लक्षणया नित्यानुषङ्गिक धातुम् इत्यर्थः। अकालसन्ध्यामिव अनियतकालप्राप्त सन्ध्यामिव शिखरैः बिभर्ति धत्ते। अत्र सन्ध्याशब्दस्य जातिवाचित्वात् जात्युत्प्रेक्षा।
आमेखलम् सञ्चरताम् घनानाम् छायाम् अधःसानुगताम् निषेव्य उद्वेजिताः वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः।
आमेखलमिति सिद्धाः अणिमादिसिद्धाः देवयोनिविशेषाश्च पिशाचो गुह्यकः सिद्धो भूतोमी देवयोनयः इत्यमरः। आमेखलाभ्यः आमेखलम् नितम्बपर्यन्तम् मेखला खण्डबन्धे स्यात् काञ्चीशैलनितम्बयोः इति विश्वः। आङ्मर्यादाभिविध्योः इत्यव्ययीभावः। सञ्चरताम् घनानाम् मेघानाम् अधःसानुगताम् अधःसानूनि मेघमण्डलात् अधस्तटानि गताम् प्राप्ताम्। द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति समासः। छायाम् अनातपम् छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः इत्यमरः। निषेव्य वृष्टिभिः उद्वेजिताः क्लेशिताः सन्तः। उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनी इति शब्दार्णवः। यस्य हिमाद्रेः आतपवन्ति सातपानि शृङ्गाणि आश्रयन्ते आश्रित्य स्थिताः इत्यर्थः। अतिमेघमण्डलम् अस्यौन्नत्यम् इति भावः।
पदं तुषारश्रुतिधौतरक्तं यस्मिन्न दृष्ट्वापि हतद्विपानां विदन्ति मार्गं नखरन्धरमुक्तैः मुक्ताफलैः केसरिणां किराताः
पदमिति यस्मिन् अद्रौ किराताः तुषारश्रुतिधौतरक्तं तुषारश्रुतिभिः हिमनिस्यन्दैः धौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् अतो दुर्ग्रहमिति भावः हताः द्विपाः गजाः यैः तेषां हतद्विपानां केसरीणां सिंहानां पदं पादप्रक्षेपस्थानम् अदृष्ट्वापि नखरन्ध्रमुक्तैः नखरन्ध्रैः नखद्रोणिभिः मुक्तैः मुक्ताफलैः मार्गं विदन्ति जानन्ति अत्र व्याधाः सिंहघातिनः गजेन्द्राश्च मुक्ताकराः इति भावः करीन्द्रजीमूतवराहशङ्खमत्स्याहि शुक्त्युद्भववेणुजानि मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि
न्यस्ताक्षराः धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः व्रजन्ति विद्याधरसुन्दरीणाम् अनङ्गलेखक्रिययोपयोगम्
न्यस्ताक्षरा इति यत्र हिमाद्रौ धातुरसेन सिन्दूरद्रवेण शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः इत्यमरः न्यस्ताक्षराः लिखितवर्णाः अत एव कुञ्जरबिन्दुशोणाः कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः पद्मकं बिन्दुजालकम् इत्यमरः ते इव शोणाः रक्तवर्णाः लिखितभागेष्वितिशेषः भूर्जत्वचः भूर्जपत्रवल्कलानि भूर्जपत्रो भुजो भूर्जो मृदुत्वच्चार्मिका अपि इति यादवः विद्याधरसुन्दरीणाम् अनङ्गलेखक्रियया लिख्यन्ते येषु ते लेखाः पत्रिकाः अनङ्गस्य लेखाः तेषाम् क्रियया कामव्यञ्जकलेखकरणेनेत्यर्थः उपयोगम् उपकारम् व्रजन्ति दिव्याङ्गनाविहारयोग्योऽयम् शैल इति भावः
यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन उद्गास्यतामिच्छति किन्नराणाम् तानप्रदायित्वमिवोपगन्तुम्
य इति यः हिमाद्रिः दरीमुखोत्थेन दरी गुहा सैव मुखम् तस्मात् उत्थेन उत्पन्नेन आतश्चोपसर्गे इति कप्रत्ययः समीरणेन वायुना कीचकरन्ध्रभागान् कीचकाः वेणुविशेषाः वेणवः कीचकास्ते स्युः ये स्वनन्त्यनिलोद्धताः इत्यमरः तेषाम् रन्ध्रभागान् छिद्रप्रदेशान् पूरयन् धमयन् वांशिकोऽपि वंशरन्ध्राणि मुखमारुतेन पूरयतीति प्रसिद्धिः उद्गास्यताम् देवयोनित्वात् उच्चैः गान्धारग्रामेण गानम् करिष्यताम् उक्तञ्च नारदेन षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः नतु गांधार नामानं सलभ्यो देवयोनिभिः इति किन्नराणां देवगायकानां तानप्रदायित्वं तानो नाम स्वरांतरप्रवर्तको रागस्थितिप्रवृत्यादिहेतुः अंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः तानस्त्वंशस्वरो मतः इत्यभिनवगुप्तः गाता यं यं स्वरं गच्छेत् तन्तं वंशेन तानयेत् इति भरतः तत्प्रदानशीलत्वं तानप्रदायित्वं वांशिकत्वं उपगन्तुम् इच्छन्ति इव इत्युत्प्रेक्षा सा च दरीमुखोत्थेनेति एकदेशविवर्तिरूपकोज्जीविता मुखसाध्यत्वात् तानप्रदायित्वस्य यत्र अवयवरूपणात् अवयविरूपणं गम्यते तत् एकदेशविवर्तिरूपकम् गम्यते चात्र अवयविनः पुंसो रूपणं यच्छब्दनिर्दिष्टे हिमाद्रौ इत्यलं बहुना
कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणां यत्र श्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति
कपोलेति यत्र हिमाद्रौ करिभिः गजैः कपोलकण्डूः गण्डस्थलकण्डूः विनेतुम् अपनेतुम् विघट्टितानां घर्षितानां सरलद्रुमाणां सम्बन्धीनि श्रुतानि करिकपोलघर्षणाक्षरितानि क्षीराणि येषां तेषां भावः तत्ता तया श्रुतक्षीरतया हेतुना प्रसूतः उत्पन्नः गन्धः सानूनि सुरभीकरोति एतेनास्य गजाकरत्वं गम्यते तथा च गजायुर्वेदे हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः इति
वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः भवन्ति यत्रौषधयोरजन्याम् अतैलपूराः सुरतप्रदीपाः
वनेचराणाम् इति यत्र हिमाद्रौ रजन्याम् दरीगृहोत्सङ्गनिषक्तभासः दर्यः कन्दराः एव गृहाः तेषाम् उत्सङ्गेषु अभ्यन्तरेषु निषक्ताः सङ्क्रान्ताः भासः यासाम् ताः ओषधयः तृणज्योतींषि अग्ना ओषधीषु च तेजः निधाय रविः अस्तं याति इत्यागमः वनितानाम् सखायः वनितासखाः राजाः सखिभ्यश्टच् वनितासखानाम् रममाणानाम् इत्यर्थः वने चरन्तीति वनेचराः किराताः चरेष्टः इति टप्रत्ययः तत्पुरुषे कृतिबहुलम् इत्यलुक् तेषाम् वनेचराणाम् अतैलपूराः अनपेक्षिततैलसेकाः इत्यर्थः सुरतप्रदीपाः सुरते सुरतकर्मणि प्रदीपाः भवन्ति अत्र ओषधीषु आरोप्यमाणस्य प्रदीपत्वस्य प्रकृतसुरतोपयोगित्वात् परिणामालङ्कारः तदुक्तम् आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः इति तथा प्रदीपकारण तैलपूर्णनिषेधात् अकारणकार्योत्पत्तिलक्षणा विभावना चेति उभयोः संसृष्टिः